सुधा भगिनी आप ले लीजिए ना प्लीज मंगलाचरण, मेरे सामने खुलने में टाइम लगेगा।
ओम गणेशाय नमः। ओम वागर्ताविव संप्रक्तौ वागर्त प्रतिपत्तये जगदः पितरौ वन्दे पार्वती परमेश्वरौ। ओम एनाक्षर समाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ओम सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावदीतमस्तु मा विद्विषावहै। ओम शांति शांति शांतिः। श्री गुरुभ्यो नमः। हरिः ओम।
उत्तमं धन्यवादः भगिनि।
धन्यवादः।
नमस्कारः सर्वेभ्यः। अस्तु वयं तु अभ्यासपुस्तकम् इति कुर्मः इति वर्गे अद्य गतवर्गे वयं रुचिकाशब्दः कृतवन्तः। तदनन्तरं
कीदृश
अपि कृतवन्तः। अस्तु अद्य तत्र किमपि प्रश्नः अस्ति वा? अन्यथा पुटसङ्ख्या 65 पुटं पश्यतु सर्वे। तत्र भवत्याः पार्श्वे अस्ति कविता भगिनी, पुस्तकम् अस्ति वा? 65 पुटं पश्यतु भगिनि।
आं भगिनि, अभ्यासपुस्तकं न?
हा हा
आमां
विरु हा, तत्र 29.1 इति संख्या अस्ति, पठतु भगिनि।
विरुद्धार्थकाः शब्दाः
इत्युक्ते किं? विरुद्धार्थकाः शब्दाः इत्युक्ते किम्?
आपोजिट् वर्ड्स्।
अर्थकः अर्थकाः इति तु बहुवचनमस्ति, यथा शब्दाः। विरुद्धार्थकाः इति कीदृशपदम्?
विशेषण
विशेषणपदम् अस्ति। शब्दाः कीदृशपदम्?
शब्दाः ऐ विल् जस्ट् चेक् इन्
विशेष्यम् अपि च पुंलिङ्गं
पुंलिङ्गं प्रथमविभक्ति बहुवचनरूपं
तदेव तदेव अकारान्त रामवत्। विरुद्धार्थकाः शब्दाः पठतु भगिनि कोष्टके।
उन्नत वामन उन्नत यानि के टॉल बड़ा वामन यानि के शॉर्ट छोटा दीर्घ यानि के लंबी जैसे हम मात्रा में यूज करते हैं और ह्रस्व यानि के छोटी अगेन मात्रा का एग्जांपल। पुरातन यानि के पौराणिक पुराना और नूतन यानि के नया। स्थूल और कृश स्थूल यानि के मतलब कृश कैन ऑल्सो बी वीक या पतला। स्थूल कैन बी ग्रोस जाड़ा मोटा। बृहत और लघु बृहत यानि के बहुत बड़ा वो हम बोलते हैं ना कि बड़ा एनसाइक्लोपीडिया और लघु यानि के छोटा सा उसका कुछ गाइडिया रहेगा या छोटी चीज लघु। देन अधिकम एंड किंचित किंचित अधिकम वो भी ज्यादा किंचित यानि के कम
कम। अस्तु अस्तु सुधा भगिनी एकम एकम पदम स्वीकृत्य एते सर्वे सर्वे कीदृश पदानि सन्ति?
अव्यय भगिनी
अव्यय तु नास्ति भगिनी कीदृशपदानि इत्युक्ते विशेषणानि पदानि विशेषणानि अस्ति चेत् त्रिषु लिङ्गेषु रूपं भिन्नं त्रिषु लिङ्गेषु रूपं भिन्नम् अस्ति चेत् उन्नत उन्नत कीदृशपदम् इति तु अकारान्त प्रातिपदिकमस्ति अकारान्तप्रातिपदिकमस्ति उन्नत पुंलिङ्गम् अस्ति चेत् किं रूपम् उन्नतः स्त्रीलिङ्गमस्ति चेत्
उन्नता
उन्नता इति मन्ये अपि च नपुंसकलिङ्गम्
उन्नतम्
उन्नतम् एकं लघु लघु किं लघु लघु किमपि वस्तु स्वीकृत्य वदतु भगिनी त्रिषु लिङ्गेषु
उन्नतः वृक्षः उन्नता
माला
उन्नता माला उन्नतं पुस्तकम्
उन्नतं पुस्तकं कथम् उन्नतं पुस्तकम् इत्युक्ते
उन्नतं पुस्तकं न उन्नतं
वातायनं
वातायनम्
वातायनम् उन्नतं वातायनम् वामन इति कीदृशपदं त्रिषु लिङ्गेषु रूपाणि वदतु
वामनः वामना वामनम्
इति मन्ये वामनः किं वामनः बालकः भवितुम् अर्हति पुरुषः वामनः पुरुषः भवितुम् अर्हति अपि च वामना
वामना
वामना बालिका अपि भवितुमर्हति वामना महिला अपि भवितुमर्हति वयं तु दृष्टवन्तः कदापि अपि च नपुंसकलिङ्गम् अस्ति चेत्
वामनम् उद्यानम्
वामनम् उद्यानम् अस्तु वामनम् उद्यानम् इत्युक्ते किं वामनं सस्यं वामनं सस्यम् इत्युक्ते न जाने किन्तु बोन्साय् यथा अस्ति आङ्ग्लभाषायां बोन्साय् वामनं सस्यमस्ति वा मेबि अस्तु अस्तु अग्रिमं पठतु कविता भगिनी दीर्घ पुंलिङ्गमस्ति
दीर्घः दीर्घ हा दीर्घः बडा दीर्घः
शब्दः किमपि
शब्दः दीर्घः शब्दः ह्रस्व मात्रा ह्रस्वः मात्रा नै मात्रा तु आकारान्त
ह्रस्वा मात्रा
ह्रस्वा मात्रा
हा किन्तु स्त्रीलिङ्गम् अस्ति चेत् दीर्घः अस्ति चेत्
दीर्घा
किं शाटिका
दीर्घा
शाटिका
शाटिका
गायक होती है ना 9 मीटर की होती है
हां नौवारी महाराष्ट्र में पहनते ना
दीर्घा शाटिका नपुंसकलिङ्गम् अस्ति चेत्
दीर्घं वनम्
वनं वा दीर्घं किं वनम् अस्तु दीर्घं वाक्यं
दीर्घं वाक्यं, दीर्घं वाक्यं,
वनं न जानाय, वनं दीर्घं भवितुम् अर्हति. अस्तु अस्तु. अपि च ह्रस्वं,
ह्रस्वं,
ह्रस्वं, किम्?
I'm just searching randomly. I got the word pension. So, Ruswam Nivrutti Vedanam. Mm, that's the word for pension.
Kintu Ruswam Tatra Samichinam Va Na Jane. Ruswam Itukte Laghu Apicha Kinchit Iti Tu Aham Avagatam. Kintu Ruswam, Ruswam Itukte Kim Ekavaram. श्रीपृषपदम्
ऋस्वं ज्योतिष, दट् फ्लाश् आफ् लैट्निङ्ग्.
हा, तत्तु समीचीनं. ह्रस्वं
ज्योतिष,
पुनः
ज्योतिष,
ज्योतिष सकारान्तपदं वा?
ह्रस्व इति,
ह्रस्वं ज्योतिषः, मनः ज्योतिः वा? ज्योतिष
नपुंसकलिङ्गं का देखा.
हा, नपुंसकलिङ्गम् अस्ति चेत् ज्यो भवती किं चिन्तयति सुधा भगिनी? ज्यो लैट्निङ्ग् वा?
सर्च् मे लैट्निङ्ग् डाला है.
मम पार्श्वे तु न आयाति तडित् सन्नति. लैट्निङ्ग् कुत्र अस्ति सुधा भगिनि? भवती किं चिन्तयति
कविता भगिनि? वाट् वर्ड् वास् इट्?
लैट्निङ्ग्, एल् ऐ जी एच् टि एन् ऐ एन् जी. और् या तु फिर् भगिनि, ह्रस्वं क्षणं,
ह्रस्वं क्षणं, तत्तु समीचीनम्. किन्तु क्षणं,
क्षण इति नपुंसकलिङ्गं,
समीचीनं वा?
मतलब दिया क्षण है, वो उसको एन दिया है, अ मोमेंट.
क्षणम् अस्तु. हा, तत्तु समीचीनं. लाइटनिंग अस्तु. वीणा, लोल, चला, अर्क, सुधा. ज्योतिष अस्तु. ज्योतिष अस्ति चेत् सकारान्त नपुंसकलिङ्गं पदं. कीदृशपदं? तत्तु मनस् अस्वत्वा ज्योतिष, न जाने भगिनि ज्योतिष कथं वदनीयं. सकारान्तु जानीमः, मनस् अस्ति चेत् मनः इति प्रथमा विभक्ति एकवचनरूपं, मनः इति. किन्तु ज्योतिष अस्ति चेत् किं भवति सुधा भगिनी? एकवारम् अन्वेषणं करोतु भगिनी. ज्योतिष कीदृशपदम्?
आं भगिनि,
अस्तु ज्योतिष. हा, सो पुनः वदतु नपुंसकलिङ्गं किं भगिनी? ह्रस्वं
क्षणं,
क्षणं, समीचीनं.
पेज् 56 आफ् शब्दमञ्जरी, मञ्जरी सेज् हवि मो के जैसे, उसमें दिया एवं सर्पिस ज्योतिष रोचिस प्रभृतयः.
हा, हवि ही वा प्रथमा विभक्ति एकवचन?
आम आम आम.
हा, सो ज्योति ही,
आ
ज्योति ही इति तु समीचीनम्. इत्युक्ते ह्रस्वं ज्योति ही, तत्तु समीचीनम्. अनुष्ठ बेटा शब्द मंजरी दो बेटा.
तो फिर ह्रस्वं ही आएगा ना? ह्रस्वं विल नॉट बिकम ह्रस्वी और समथिंग लाइक दैट?
ना 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 ना, ह्रस्वं तु, धन्यवाद. ह्रस्वं तु ह्रस्वमेव एकं बहु समीचीनं वेब्सैट् अस्ति तत्र अभ्यास भगिन्याः एव
संसाधिनी
वदतु सुधा भगिनी
संस्कृत अभ्यास
एकनिमेषं मम पार्श्वे लिङ्क् तु अस्ति किन्तु एकवारं प्रेषयतु भगिनी
स्वागतं बीना भगिनी
ओ अस्ति वा बीना भगिनी स्वागतं संस्कृत व्याकरण अभ्यास अधुना तु अवगतम् अस्तु आयाति एव
एक बार जो सुधा भगिनी ने भेजा था हाँ संस्कृत अभ्यास .in/en उन्होंने भेजा अभी ग्रुप पे भी
तदेव तत्र पश्यतु भगिनी क्रियापदानि नामपदानि सर्वे सन्ति तत्र रूपाणि इति एकवारं क्लिक् करोतु तदनन्तरं ज्योतिष देवनागरी एवं स्वीकरोति न तत्र वेब्सैट् भगिनी
आं भगिनि
हा ज्योतिष अस्ति चेत् तत्र सर्वाणि रूपाणि प्रदर्शयन्ति बहु समीचीनमेव ज्योतिष पुंलिङ्गं नास्ति अस्तु नपुंसकलिङ्गं सकारान्त नपुंसकलिङ्गम् आहा अधुना तु अस्तु स्क्रीन् शेरिङ्ग् अहम् एकवारं प्रयत्नं करोमि बेण्ड् विड्त् अस्ति वा न वा तु न जानामि एकवारं प्रयत्नं करोमि तदेव पश्यति वा सर्वे स्क्रीन् शेरिङ्ग् मध्ये एकवारं पश्यतु ज्योतिष्शब्दरूपाणि संस्कृतनपुंसकलिङ्गं ज्योतिः ज्योतिषी ज्योतिषी
न द्रक्ष्यामि भगिनि
नास्ति वा तत्र
नास्ति भगिनि स्क्रीन् शेरिङ्ग् मध्ये प्रेसेण्टर् इति आयाति परन्तु
चक्र घूम रहा है बट वो उससे ज्यादा नहीं बढ़ रहा है
बैंडविड्थ नास्ति अहम तो रिमूव करूंगा दैट्स व्हाट ही वाज सेइंग बैंडविड्थ डज नॉट एग्जिस्ट इन इंडिया टू टू स्टॉप स्क्रीन शेयरिंग
अस्तु एक बार बहुवचन रूपम है ना उसमें न की भी है सो हविंशी है
हां ज्योतिंशी
ज्योतिंशी
संस्कृत अभ्यास इति वेबसाइट मध्ये ज्योतिष इति नपुंसकलिङ्गं दत्तं सर्वाणि रूपाणि दत्तानि एकवारं पठतु सुधा भगिनी सर्वाणि ज्योतिः
ज्योतिषी ज्योतींषि ज्योतिः ज्योतिषी ज्योतींषि ज्योतिः ज्योतिषी ज्योतींषि ज्योतिषा ज्योति ज्योतिर्भ्यां ज्योतिर्भिः ज्योतिषे ज्योतिर्भ्यां ज्योतिर्भ्यः ज्योतिषः ज्योतिर्भ्यां ज्योतिर्भ्यः ज्योतिषः ज्योतिषोः ज्योतिषां ज्योतिषी ज्योतिषोः ज्योतिषु
सुन्दरम् अधुना वयं किं कृतवन्तः किं कुर्मः तत्र ह्रस्व इति प्रेषयतु विण्डो मध्ये ह्रस्व किम् अभवत् एकवारं पश्यतु ह्रस्व किम् अभवत् न जानामि कविता भगिनी कर्तुं शक्नोति वा
ह्रस्व मतलब उसको वेबसाइट में ढूंढना है
ह्रस्व नास्ति किमर्थं नास्ति भगिनी ह्रस्वः वा ह्रस्वं ह्रस्वं करोमि ह्रस्वम् अस्ति वा ह्रस्वं शब्द अन्यत्र अन्विष्यत धातुरूपेषु सुधा भगिनी भवती कृतवती वा ह्रस्वम् अस्ति वा तत्र
न भगिनि
किमर्थं नास्ति तत्र मम दोषः अस्ति वा तत्र किमर्थं न आयाति धातु तिङन्त कृदन्त सम्भव सम्भावितानि शब्दानि नास्ति तत्र नास्ति अस्तु किमर्थं नास्ति अस्तु अस्तु अग्रिमम् अस्तु सुधा भगिनी पठतु भगिनी पुरातन
आम् पुरातन नूतन पुरातन ग्रन्थालये पुरातनाः ग्रन्थाः सन्ति
सत्यं ग्रन्था सुन्दरं ग्रन्थालये पुरातनः ग्रन्थाः सन्ति अस्तु पुरातन अपि नास्ति तत्र किमर्थं नास्ति ते ओ अस्ति 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 भगिनि नपुंसकलिङ्गम् अस्ति पुंलिङ्गम् अपि अस्ति किन्तु पुरातनी इति दत्तं हा सर्वाणि रूपाणि दत्तं दत्तानि अस्तु पुरातनः वदतु
अन्य एकं वेब्सैट् अस्ति रैट् लैक् दट् जे एन् यू सैट् वेर् वि जनरेट्
अस्तु अस्तु अस्तु
अत्र ह्रस्वस्य स्त्रीलिङ्गरूपं न दत्तं
ह्रस्वी वा ह्रस्वा वा ह्रस्वी मम इति इत्युक्ते ऊहां करोमि चेत् तु ह्रस्वी इति भवति भवति ऊहामेव किन्तु
पुंलिङ्गं रूपाणि आयाति नपुंसकलिङ्गम् अपि आयाति परन्तु स्त्रीलिङ्गरूपाणि न दत्तम्
ओ किमर्थं जे एन् यू अस्तु अत्र अस्ति जे एन् यू अपि एकवारं प्रेषयतु कवितायाः कृते
आं भगिनि अहं
प्रेषयामि अपि कविता भगिनी भवती उद्घाटनं शक्यते वा भवत्याः भवत्याः
उद्घाटनं
मोबैल् अस्तु 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 फोर् गाट् मोबैल् किञ्चित् लिमिटेड् अस्ति अस्तु नास्ति चिन्ता नास्ति चिन्ता पुरातन अस्तु पुरातनः ग्रन्थः सुन्दरं नपुंसकलिङ्गमस्ति चेत् पुरा
भगिनी आप ये व्हाट्सएप पे भेज सकते होगे क्या क्योंकि ये दूसरे इस पे हो ना इसमें और कुछ नहीं है सॉरी
सुधा भगिनी कथं करणीयम्
वाट्सप् मध्ये प्रेषयामि वा
वाट्सप् मध्ये द लिङ्क् भगिनि
आम् आम् जोपि चाट् पे
यू केनाट् गो यू केनाट् फैण्ड् द लिङ्क् आन् वाट्सप् ऐ मीन् यू केनाट् सी इट् भगिनि
भगिनी आई कैन सी इट बट आई एम ऑन एन अदर डिवाइस इसमें बहुत मिनिमल है सिर्फ काम के क्योंकि आई एम एक्सपेक्टिंग सिस्टर्स कॉल तो इसलिए नॉर्मल मोबाइल को फ्री रखा है सो दिस वन इज वेरी मिनिमल इसमें सिर्फ ये ही है अभी FCC इंस्टॉल किया टू अटेंड द क्लास
अस्तु अस्तु आई विल सेंड इट इन ईमेल आफ्टरवर्ड
ऑलराइट भगिनी
नास्ति चिंता अस्तु वदतु भगिनी सुधा भगिनी पुरातन नपुंसकलिङ्गम् अस्ति चेत् किम् अभवत्? पुरातनम् इति वदतु. पुरातनस्य व्यजनस्य वायुः अधिकं नास्ति. पुरातनस्य व्यजनस्य वायुः अधिकमस्ति. किमपि पुरातनं पुरातनं पुरातने पुरातनानि सर्वं सामान्य एव सर्वाणि रूपाणि. अस्तु, तदनन्तरं स्त्रीलिङ्गम् अस्ति चेत् वदतु भगिनि. पुरातनी नदीवत् अस्ति वा? एकवारं वदतु. पुरातनी सरस्वती पुरातनी नदी तदेव. सरस्वती पुरातनी नदी पुरातनी. अग्रिमं करोतु भगिनि. नूतन
नूतन नूतन
नूतनः नूतनं नूतना वा नूतन हा नूतनः वदतु एकवारं.
नूतनः नूतनः नूतनं नूतनं नगरं नूतनः नूतन अस्मिन् ग्रामे एकं एकः नूतनः विद्यालयः अस्ति.
सुन्दरं सुन्दरम्. अस्मिन् ग्रामे पुनः वदतु.
अस्मिन् ग्रामे एकः नूतनः विद्यालयः अस्ति.
नूतनः विद्यालयः सुन्दरं. नपुंसकलिङ्गमस्ति चेत्
अहम् एकं नूतनं पुस्तकं पठितुम् इच्छामि.
सुन्दरं सुन्दरं. स्त्रीलिङ्गमस्ति चेत् तदपि नास्ति. तत्र संस्कृत अभ्यास डाट् इन् मध्ये अहं तु न पश्यामि. अन्विष्यत् इत्युक्ते लिमिटेड् शब्दाः सन्ति तत्र. अस्तु,
नूतनस्य स्त्रीलिङ्गरूपमपि न दत्तं.
न दत्तं न
भगिनि.
किमर्थं भवितुम् अर्हति तु इति मन्ये, ऊहां करोमि, किन्तु किम् अस्ति. अस्तु, अग्रिमं स्थूल स्थूल इति करोतु कविता भगिनी. स्थूल
स्थूलः मतलब के बड़ा. तो स्थूलः एक निमिष
स्थूल स्थूलः बालकः तदपि समीचीनम्.
आम् अदर्वैस् हा ठीक् भगिनि. स्थूलः बालकः
स्थूलः वृक्षः किमपि
स्त्रीलिङ्गं क्या होगा स्थूला
स्थूला वा कृष्णादेति श्रुता भगिनी स्थूल अस्ति चेत् किं करणीयम् अस्ति स्त्रीलिङ्गं स्थूलकः स्थूलकं स्थूलनीया ओ अस्ति वा दीर्घ आकारान्त् अस्ति चेत् स्थूलनीया
स्थूलनीया
स्त्रीलिङ्गं स्थूलनीया
स्थूलनीया भित्ति इसका नपुंसकलिङ्गं क्या होगा
स्थूलं वा स्थूलं तत्तु समीचीनम् इधर लाइट है क्या बोलिए
स्थूलम
स्थूलम स्थूलम तो नपुंसकलिंगम स्थूल स्थूलम स्थूलनीय स्थूलनीय किंचित अन्य रूपम अस्ति किंतु अत्र तु समीचीनम अद्य तु समीचीनम एव स्थूलनीय स्थूलयमाना स्थूलयित्वा यतव्या स्थूलिका स्थूलिता इति सर्वाणि अपि च दीर्घ ईकारान्तरूपमपि अस्ति स्थूलयित्री स्थूलितवती इति अपि भवितुम् अर्हति अस्तु
अत्र प्रातिपदिकं स्थूल नास्ति
इति मन्ये भगिनी किञ्चित् इत्युक्ते किञ्चित् जटिलविषयः अस्ति सामान्यरूपाणि नास्ति तत्र
ईदृशमेव ह्रस्वः इति अपि दत्तं
दत्तं वा मम पार्श्वे तु न आयाति ह्रस्वं तु अस्ति ह्रस्वः अपि अस्ति तत्तु अहम् अनेकवारं श्रुतवती किन्तु ह्रस्वा
ह्रस्वत्व इति एव दत्तं ह्रस्वत्व ह्रस्वता स्त्रीलिङ्गरूपम्
अस्तु अस्तु आप्टे मम पार्श्वे आप्टे डिक्शनरी अपि नास्ति शब्दकोशः अधुना तु नास्ति रायपुरनगरे अस्ति अस्तु तत्रापि दत्तानि पदानि अनेकानि पदानि अस्तु स्थूल अस्तु कृश कीदृशपदं कृश इति एकवारं कृश
कृशः कृषकः फिर का कृशा होगा वीक
न जानामि
हा
इति मन्ये इति मन्ये हा
एण्ड् नपुंसकलिङ्गं कृश बताएंगे क्या होगा
कृशं वा कृशं
कृशं कृशं
पुनः स्त्रीलिङ्गं नास्ति
कृशा है अभी जस्ट एक वेबसाइट पे ढूंढा तो उसने दिया कृशः कृशा कृशम
कृशा कृशम अस्तु उत्तमम्
कृशम अंग कृशम छोटा
वीक हाँ वीक का सीबल कृशम सस्यम कृशम माला न माला तो कृशामाला कृशं किं कृशं पेषकम् समीचीनं पेषनं मिक्सि चलति नै न जो पात्रम् अस्तु अस्तु अग्रिमं बृहत् बृहत् अस्ति चेत् विशिष्टरूपाणि सन्ति एव बृहन् बृहती बृहतः वा बृहन् किम् अस्ति तत्र एकवारं पश्यतु सुधा भगिनि बृहत् 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 बृहन् आप्टे मध्ये इदं पदं तु अस्ति मम पार्श्वे नास्ति बृहत् तकारान्तपुंलिङ्गं नपुंसकलिङ्गमपि तकारान्तमस्ति बृहत् बृहद् इति अस्ति बृहत् बृहद् दकारान्त तकारान्त अपि दकारान्त नपुंसकलिङ्गे अस्ति अपि च पुंलिङ्गं रूपं बृहन् अस्ति नकारान्त अस्ति चेत् तु पुंलिङ्गम् अस्ति बृहन् सो अधुना वदतु भगिनी बृहन् बृहन् किम्
बृहन्
श्यामिमा भगिनी जो पीछे आंसर दिए है ना तो वहां पर जो ये एग्जाम्पल है विधान सौधम बृहत् अस्ति तो उसका जवाब बृहत् दिया है
बृहत् उत्तमम उत्तमम नपुंसकलिंगम अस्ति तदेव बृहत् अस्ति पुंलिंगम अस्ति चेत् बृहन् इत्युक्ते भगवद्गीताग्रन्थः महाभारतः ग्रन्थः बृहन् अस्ति न सुधा भगिनी विश्वेषु बृहन् अस्ति दुनिया में भी बड़ा है वो नाट् जस्ट् इन् इण्डिया है न अस्तु बृहन् नकारान्त अस्ति चेत् अपि च तकारान्त दकारान्त अस्ति चेत् नपुंसकलिङ्गम् पुनः वदतु कविता भगिनी भवत्याः वाक्यं
न अहं पीछे देख कर आपको बता रही थी कि वहां पर ये दिया है विधान सौधम बृहत् अस्ति ये जो नीचे है ना सेकंड लास्ट वो वाले पिक्चर का
ओ हाँ विधान सौधम उत्तमम विधान सौधम नपुंसकलिंगम पदम बृहत् अस्ति
बृहती स्त्रीलिंग रूपम अस्ति
हाँ बृहती तो अहम श्रुतवती बृहती
स्पोकन संस्कृत मध्ये वाक्ये प्रयोगम अस्ति
सुंदरम सुंदरम बृहती अस्तु सुन्दरं बृहती अस्तु लघु अस्ति चेत् उकारान्त अस्ति. अधुना वदतु सुधा भगिनी, गुरुवत् अस्ति पुंलिङ्गम्. लघुः
लघुः लघ्वी
लघ्वीशाला
लघ्वीशाला लघ्वी उत्पीठिका
उत्पीठिका उत्तमं. लघ्वी उत्पीठिका. लघ्वी लघुः तु पुंलिङ्गम् अस्ति. लघुः किं किं लघुः? कोष्टकः.
लघुः मूषकः.
मूषकः अस्तु, सुन्दरं. मूषकः नपुंसकलिङ्गम् अस्ति चेत् लघु लघ्वी लघुं वा लघु. एकवारं वयं कृतवन्तः तत् भगिनी.
लघु लघु उकारान्त नपुंसकलिङ्ग् नपुंसकलिङ्ग् गुरुशब्दवत् है तो गुरु गुरु है ना तो लघु ही रहेगा फिर प्रथमा में. पेज 29 30 हाँ शब्दमंजरी उसमें लिखा है एवं मृदु पृथु पटु लघु प्रभृतयः.
तो लघु एव किमपि अन्यत् नास्ति. लघु सुन्दरं. लघु
लघुचित्रं
लघु हा लघुचित्रं सुन्दरं लघुचित्रं लघु उत्तमम्. अस्तु अधुना अधिकम् अधिकं तु अधिकम् एव दत्तम्. अधिकः अपि भवितुम् अर्हति वा इति प्रश्न उदेति. अधिक अधिक एकवारं पश्यतु तत्र वेब्सैट् मध्ये. अधिक अधिक नास्ति वेब्सैट् मध्ये नास्ति अधिक. अधिकम् अधिकं तु अव्ययपदम्. अधिक अपि अव्ययपदं विशेषणम् अपि अस्ति. अधिक उपकार अधिकरणचिह्न अस्ति. तेषु प्रदेशेषु हिमपातः अधिकं तत्तु ल्युडन्तं पदम्. अद्य किञ्चित् शैत्यम् अधिकं तदपि ल्युडन्तं पदम्. अस्तु अधिकं तु वयं किं करणीयम्? अव्ययपदम् इति स्वीकरणीयम् अधुना अद्य.
प्रश्नः अस्ति लघु एक वाक्यं दत्तं स्पोकन् संस्कृत मध्ये तस्याः हस्ते लघु पाञ्चालिका आसीत्.
लघु पाञ्चालिका एकमेव पदं वा?
न न भिन्न पदं द्वे अपि अस्ति. लघु किमर्थम्?
तो वर्ड ऑफ कॉशन स्पोकन संस्कृत पे एकदम 100% हो ऐसा भी नहीं है. तो ये मैंने सुना है ऐसा.
हाँ सत्यम भगिनी. कुत्र अस्ति भगिनी? अधो भागे अस्ति वा? स्क्रॉल डाउन.
आं भगिनि अधोभागे
स्माल् डाल् इन् अर् हेण्ड् तस्याः हस्ते लघु किन्तु सा एकं लघुं बालं नयन्ती आसीत् लघुं बालम् अस्तु अपि च लघु गोष्ठ्याः कृते तत् समीचीनम् लघुगोष्ठ्याः लघु अस्तु लघुगोष्ठ्याः निवासखण्डः लघु एव यस्मिन् एकः प्रकोष्ठः लघु बहुवारं लघु एव दत्तम्
आं भगिनि
हा
अहम् एक मम अध्यापिका पश्यामि अध्यापिकां पश्यामि लघु इति कीदृशपदं कथं प्रयोगं कुर्मः अस्तु लघु प्रश्नवाचकः अस्तु अस्तु अग्रिमम् अधिकं तु अव्ययपदम् अस्ति चेत् एकम् वाक्यं वदतु भगिन्यो अधिकम्
मम भोजने लवणम् अधिकम् आसीत्
भोजने लवणम् अधिकम् उत्तमम् कविता भगिनी
अहम् अद्य अधिकं जलं पिबामि
अधिकं जलं पिबामि अधुना एव पिबामि उत्तमम् अस्तु किञ्चित् कीदृशपदम्
किम् और
कश्चित् प्रथमविभक्ति पुंलिङ्गं पदम् इत्युक्ते कश्चित् किं कश्चित् पुंलिङ्गम् अस्ति चेत् किं कश्चित् बालकः कश्चित् बालकः इत्युक्ते कोई एक लड़का अपि च किञ्चित् इत्युक्ते किम् किञ्चित् इत्युक्ते किम् अर्थः कः वदतु एकवारं
वेरि लेस्
हा लिटल् किन्तु कीदृशपदम्
अपना जो अष्टाध्यायी है उसके डिक्शनरी वाले पार्ट में मैंने एक्सेस शब्द डाला तो उसमें आ रहा है ऑफन बाय एडजेक्टिव अधिक और ब्रैकेट में का और कम लिखा है तो वो अव्यय पदम शायद नहीं है
भगिनी
अष्टाध्यायी में उसका जो डिक्शनरी वाला है ना
कोशा
उसमें शब्द मैंने एक्सेस जी एक्सेस ऐसा इंग्लिश में टाइप किया तो उसके जो मीनिंग्स आते हैं तो जो बुरुआ इंग्लिश संस्कृत डिक्शनरी है उसमें दिया है पॉइंट नंबर 3
उत्तम यत्र कुत्रापि अस्ति चेत् संस्कृतभाषायां तु अस्ति एव इति वयं स्वीकरणीयम् उत्तमम् अस्तु सो किञ्चित् इति कीदृशपदम् एकवारं किम् इति प्रातिपदिकं तः आयाति प्रातिपदिकं तु किं योगः चन वा चित् वा यदि निश्चयं नास्ति, अनिश्चयः विषयः अस्ति चेत् चित् वा चन् वा, चित् चन् इति अव्यय पद पदद्वयं, चित् वा चन् वा. पुंलिङ्गम् अस्ति चेत् कः चित् प्रथमविभक्ति कः, किम् अस्ति चेत् पुंलिङ्गं रूपं कः कौके. किन्तु अनिश्चयं पदम् अस्ति चेत् कश्चित् कौचित् केचित् इति रूपाणि. द्वितीयविभक्तिरूपाणि कः कौके कं कौ कान्. कं किं भवति, कं कञ्चित् कञ्चित्. नपुंसकलिङ्गमस्ति चेत् किं के कानि, किं के कानि प्रथमद्वितीय. किं के कानि किम् अभवत्, किञ्चित् केचित् कानिचित्. किञ्चन केचन कानिचन रूपद्वयं भवितुमर्हति. इत्युक्ते किञ्चित् इति नपुंसकलिङ्गं रूपम् अस्ति. किमर्थं नपुंसकलिङ्गं दत्तं तत्र, किमर्थं पुंलिङ्गं नास्ति, यदि न जानामि चेत् न जानीमः वयं नपुंसकलिङ्गमेव स्वीकरणीयं, तेन सुलभमस्ति. तदर्थं किञ्चित् एव दत्तं. किञ्चित् इत्युक्ते प्रथमद्वितीय नपुंसकलिङ्गम् एकवचनरूपम् अस्ति यदि विषयः अनिश्चितः. अवगतम्?
किञ्चित् किञ्चित्
भगिनि एकवारं पुनः वदतु भगिनि.
हा अस्तु, किम् इति तु वयं जानीव भगिनि, प्रातिपदिकं किम्.
आम्,
किं त्रिषु लिङ्गेषु रूपाणि भिन्नानि. अवगतम्?
आम्.
इत्युक्ते पुंलिङ्गम् अस्ति चेत् वदतु प्रथमविभक्ति कः
कः कौके
कः कौके. अधुना कः योगः चित्. चित् कीदृश पदमस्ति? चित् एकम् अव्ययपदमस्ति. तस्य किमपि परिवर्तनं न भवितुमर्हति. किन्तु कः योगः चित् अस्ति चेत् किं भवति, कश्चित् सन्धि भूत्वा विसर्गस्थाने शकार आयाति, कश्चित् भवति. कः चित् इत्युक्ते कश्चित्. यदि वयं न जानीमः इत्युक्ते चित् चन पदे अस्ति चेत् इति तु निश्चयमस्ति. किम्, विषयः अनिश्चितम् 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 इत्युक्ते अन्सर्टन्. यदा कदा अन्सर्टनिटि अन्सर्टनिटि अस्ति चेत् चित वा चन् वा इति वयं योजयामः. इत्युक्ते अन्यचित् इत्युक्ते न जानामि कि अन्य किम्, अन्यचित् किमपि, समथिङ्ग् डिफ्रेण्ट्. वाट् एक्साक्ट्लि वाट् डिफ्रेण्ट् ऐ डोण्ट् नो. पुंलिङ्गम् अस्ति चेत् इत्युक्ते एषः बालकः, एषः बालकः अस्ति चेत् तु वयं जानीमः किं बालकः कः बालकः, एषः बालकः निश्चितः अस्ति. एषः रामः बालकः निश्चितरूपं वयं जानीमः. बालकः कः, एषः बालकः. किन्तु न जानामि किं कः बालकः इत्युक्ते एनी वन् बोय् अस्ति चेत् किं भवति, कश्चित् बालकः. कश्चित् एकमेव अस्ति चेत् कश्चित् बालकः इति तु प्रथमविभक्ति. द्वितीयविभक्ति अस्ति चेत् बालकं रामम् तत्र किम् अभवत्, कः योगः चित् आयाति, कं कं भवति, द्वितीयविभक्ति किं भवति, कं भवति, कः कौके, कं कम् अस्ति चेत् कं योगः चित् सन्धि भूत्वा किम् अभवत्, किञ्चित् ञकार आयाति विसर्गस्थाने, किञ्चित् कञ्चित् भवति पुंलिङ्गम्, किन्तु नपुंसकलिङ्गम् अस्ति चेत् तु किं के कानि, किं के कानि रूप विभक्ति समाने वा रूपम्, किं योगः चन किञ्चन, किं योगः चित् किञ्चित्, अवगतम्?
आं भगिनि.
हा, इत्युक्ते किञ्चित् इति पदं नपुंसकलिङ्गं पदम्. स्त्रीलिङ्गं कथं वदनीयं? काचित्, का योगः चित् काचित् इत्युक्ते का के काः, कां के काः, द्वितीयविभक्ति स्त्रीलिङ्गरूपं वदतु भगिनि, ऊहां करोतु.
काञ्चित्,
काञ्चित् काञ्चित् ञकार आयाति, किमर्थं? चकारस्य अनु नासिकवर्णः ञकारः. अवगतं कविता भगिनी, किञ्चित् अवगतं तत्र?
आं भगिनि.
हा, इत्युक्ते प्रातिपदिकं तु किम् एव, किन्तु पुंलिङ्गं पुंलिङ्गरूपाणि भिन्नानि, कः कौके, कं कौकान्, केन काभ्यां, कैः इति. स्त्रीलिङ्गमस्ति चेत् का के काः, कां के काः, कया काभ्यां, काभिः इति. नपुंसकलिङ्गमस्ति चेत् किं के कानि, किं के कानि, अन्यथा तु पुंलिङ्गम् अस्ति एव. तत्र सन्धि भूत्वा किम् अभवत् तदेव अहं वदामि, किमपि अन्यथा चेष्टा जाता नास्ति, चिन्ता मास्तु तत्र. केवलसन्धि भूत्वा किम् अभवत् इति चिन्तनीयम्.
आं भगिनि, भगिनी मैंने डिक्शनरी में लिटिल डाल के ढूंढा ना, तो लघु हु उसका स्त्रीलिंग भी लघु हु और नपुंसकलिंग लघु विदाउट द विसर्ग, और ऋस्व भी यही आ रहा है, ऋस्वः, ऋस्वा, ऋस्वम्.
कुत्र? स्पोकन संस्कृत मध्ये वा?
ऑप्शंस में मिलेंगे
भगिनी, कुत्र?
हेलो,
स्पोकन संस्कृत मध्ये भगिनी न श्रूयते वा? स्पोकन् संस्कृत् मध्ये.
हलो,
श्रूयते वा भगिनि?
ओ सोरि, मेरे इधर शायद बहुत एक ही दंडी है इंटरनेट की, उसके वजह से होगा शायद. आई कुड नॉट हियर यू.
डिड यू हियर भगिनि? श्रूयते वा?
हां, अहम् श्रुणोमि भगिनि. कविता भगिनि इज नॉट एबल टू हियर अस अगेन.
या, अभी आ रहा है आप लोगों का, वो एक दंडी है उस पर चल रहा है, पता नहीं क्यों.
हाँ 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 हाँ, एक दंडी में बेचारा क्या करेगा. अस्तु, सो किञ्चित् अस्तु. सो भवती किम् उक्तवती? लिटिल् इति स्पोकन् संस्कृत् मध्ये अन्वेषणं कृत्वा इति वदति न?
न भगिनी, अष्टाध्यायी में उसका जो डिक्शनरी वाला पार्ट है उसमें मैंने लिटिल डाला. हाँ, तो उसमें इट गिव्स अ लॉट ऑफ दीज वर्ड, तो उसमें है ऋस्व के, एंड देन इट गिव्स उसके रूप भी साइड में ही लिखा होता है, तो इसीलिए हम ढूंढ रहे थे ना इधर उधर, तो ये वाला अभी स्ट्राइक हुआ मुझे.
अस्तु, उत्तम. कुत्र अन्वेषणं करोति भगिनि? मम तु किमपि न आयाति शब्दपाठः.
सोरि, मुझे कुछ पूछ रहे
हैं. आम भगिनि, कुत्र शब्दपाठः
इति? होम पेज पे, वो जो उसका कोश है ना डिक्शनरी वाला, उस पे जाकर जो नया फीचर ऐड हुआ है सम टाइम बैक.
ओ या, कोशाः, कोशान्वेषणम् इति वा?
आं भगिनि.
अस्तु अस्तु, अहं कदापि न उद्घाटयामि. अस्तु, लिटिल् स्टार्टिङ्ग् वित् लिटिल् भगिनि, इस् दट् अ गुड् ओमेन्? अस्तु, लिटिल् अस्तु, अल्पः अल्पा अल्पम् उत्तमं भगिनी, सुन्दरं, धन्यवादः. न जानामि अहं तु इति, वेब्सैट् अस्ति एव. सूत्रं लघुः लघुः लघु, हा
उसी में आगे पढ़िए, ह्रस्वः है.
अस्तु, ह्रस्वः ह्रस्वा ह्रस्वम् उत्तमम् उत्तमं, तदेव समीचीनम् इत्युक्ते अष्टाध्यायी डाट् काम् तु समीचीनमेव. ह्रस्वः ह्रस्वं ह्रस्वा, अस्तु ह्रस्वा उत्तमम्, ह्रस्वः ह्रस्वं ह्रस्वा उत्तमं. धन्यवादः भगिनि. अस्तु,
धन्यवादः.
अधुना अग्रिमं पठतु सुधा भगिनी, तस्य अधोभागे, कोष्टकस्य अधोभागे किं दत्तम्? उपरि
उपरि केचन विरुद्धार्थकाः शब्दाः सन्ति अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु.
इत्युक्ते
उपरि भागे केचन शब्दार्थक विरुद्धार्थकशब्दाः सन्ति, सम् आपोसिट् वर्ड् आर् देर्. अधस्तनवाक्येषु स्थितानि रिक्तस्थल इन् द बिलो सेण्टेन्सस् please fill the blanks in the below sentences with appropriate opposite words.
By means of uchitaihi.
By means of uchitaihi viruddhartaka shabdaihi.
Purayatu kidrisha padam?
Purayatu lotlakara.
Dhatu?
Purdhatu.
पूर्धातु, उत्तमम् उत्तमं. लघुवाक्यं वदतु.
वाक्यद्वयं सः प्रथमवाक्यम् प्रथमवाक्यस्य लघुवाक्य प्रथमवाक्ये लघुवाक्यमस्ति, शब्दाः सन्ति.
सत्यम्. अग्रिमम्
विरुद्धार्थकाः शब्दाः सन्ति, द्वयोः मध्ये विशेषणविशेष्यभावः अस्ति. कुत्र सन्ति? उपरि सन्ति. उपरि केचन विरुद्धार्थकाः शब्दाः सन्ति.
तत्रापि केचन एकं पदमस्ति, केचन. पश्यतु अत्र कुतः आयाति केचन, वदतु.
विशेषण के इसमें लेंगे क्या के केचन भी शब्दाह के बारे में कुछ बता रहा है हमें कि वो वैसे नहीं पूछना है.
सत्यम भगिनी, विशेषण पदम कस्य विशेषणम? शब्दाह. शब्दाः बहुवचनरूपम् अस्ति, पुंलिङ्गम्. अपि च कः कौ कः कौ के के अपि बहुवचन पुंलिङ्गं रूपम् अस्ति. के योग चन केचन चित् अस्ति चेत् वदतु सुधा भगिनी.
केचित्
केचित् सरलमेव. केचित् अपि केचन किमपि अर्थभेदः नास्ति, किमपि अर्थभेदः नास्ति. सुन्दरम्. अस्तु, अग्रिमं वाक्यस्य लघुवाक्यं वदतु.
अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु. रिक्तस्थलानि पूरयतु.
अस्तु,
स्थितानि रिक्तस्थलानि पूरयतु.
किन्तु लघुवाक्यम् इत्युक्ते कर्तृपदं वदतु भगिनी.
रिक्तस्थलानि पूरयतु
रिक्तस्थलानि कीदृशपदं विभक्तिरूपं किं भगिनि
रिक्तस्थलानि द्वितीया विभक्ति
कर्मपदं
कर्मपदं
सत्यं कर्तृपदं वदतु
भवान् भवती पूरयतु
भवान् पूरयतु भवती पूरयतु तदेव अवगतं कविता भगिनी
आं भगिनी
रिक्तस्थलानि स्थितानि रिक्तस्थलानि ते तु कर्मपदं कर्मपदं किमर्थं पूरयतु तु सकर्मक क्रियापदं
दोनो शब्द आएंगे ना अधस्तन वाक्येषु स्थितानि रिक्तस्थलानि तो ये
अधस्तन वाक्येषु विभक्ति रूपं वदतु भगिनी कविता भगिनी
ये पोजिशन बता रहा है कि किधर है
सप्तमी अस्ति
सप्तमी
बहुवचन सप्तमी
इत्युक्ते किमपि तस्य विशेषणं पदं नास्ति तत्
ओके ओके
किन्तु विशेषणविशेष्यभावः द्विवारम् अस्ति तत्र स्थितानि रिक्तस्थलानि एकवारम् अपि च उचितैः वदतु
उचितैः विरुद्धार्थकशब्दैः तृतीया बहुवचनं
सत्यं सत्यं तदेव अवगतं सर्वे अस्तु अग्रिमं वाक्यं पठतु भगिनी सुधा भगिनी
नालिकेरवृक्षः बृहत् अस्ति उन्नतः अस्ति
उन्नतः अस्ति बृहत् तु न भवितुम् अर्हति किमर्थम्
वृक्षः बृहन्
बृहन् अस्ति तदपि समीचीनं किन्तु बृहन् तु नास्ति एव इत्युक्ते बृहन् तु नास्ति उन्नतः
उन्नतः एव
सत्यम् उन्नतः अस्ति अग्रिमं
जम्बीरवृक्षः वामनः अस्ति
जम्बीरवृक्षः कीदृशवृक्षः
जम्बीरवृक्षः नास्ति जम्बीरवृक्षः
जम्बीर कीदृशवृक्षः इत्युक्ते किम् आङ्ग्लभाषायां जानाति वा
लेमन् ट्री वा
इति मन्ये इति मन्ये एकवारं पश्यामि जम्बीरं लेमन् ट्री लेमन् ट्री सत्यं जम्बीरं तत्र कुत्र वयं पठितवन्तः इति पदं
रुचिवाचकशब्दः
सत्यं सत्यम् उत्तमम् अग्रिमं करोतु कविता भगिनी
आं भगिनि दण्डः दीर्घः अस्ति ब दण्डः ह्रस्वः अस्ति भगिनि ऐ जस्ट् टेक् मै सिस्टर्स् काल्
सत्यं धन्यवादः अस्तु अग्रिमं बीना भगिनी भवत्याः पार्श्वे पुस्तकम् अस्ति वा
नो भगिनि नास्ति
अस्तु अस्तु सुधा भगिनी
आं भगिनि
पी डि एफ़् अपि अस्ति भगिनि अभ्यासपुस्तकस्य पी डि एफ़् अपि अस्ति वेब् मध्ये एकवारं डौन्लोड् करोतु अस्तु पठतु वदतु सुधा भगिनी
युतकं पुरातनम् अस्ति
पुस्तकं
नूतनम् अस्ति
पुस्तकं नूतनं युतकं पुरातनं बहुवचनम् अस्ति चेत्
युतकानि पुरातनानि सन्ति
अपि च
पुस्तकानि नूतनानि सन्ति
नूतनानि सन्ति सत्यम् अग्रिममपि करोतु भगिनि
आम् गोविन्दः स्थूलः बालकः समीरः कृशः बालकः
कृशः बालकः समीरः कृशः बालकः गोविन्दः स्थूलः बालकः स्त्रीलिङ्गमस्ति चेत् वदतु कथा वदनीयं वयं तु न अस्तु अत्र पश्यतु अष्टाध्यायी मध्ये किमस्ति एकवारं पश्यामि फ्लाट् वा बिग् वा बिग् बिग् स्थूल स्थूला स्थूलम् अस्ति भगिनि स्थूला अपि अस्ति उत्तमं वदतु
लता स्थूला महिला अस्ति
लता स्थूला महिला अपि च
आं भगिनि ऐ एम् बेक्
विरुद्धार्थकः वदतु श्रुत्वा भगिनि बेला किमपि
लीला कृशा अस्ति
अस्ति कृशा अस्ति नीला कृशा अस्ति सत्यम् उत्तमम् अग्रिमं करोतु कविता भगिनी विधानसौधनं वदतु
विधानसौधं बृहत् भवनं सन्दीपस्य गृहं लघुगृहं
लघुगृहं लघुगृहमेव अस्ति इति लघु तत्र लघु किं दत्तम् अष्टाध्यायी
लघुः लघुः लघु तो पुंलिङ्ग स्त्रीलिङ्गं में दोनों में विसर्ग है और नपुंसकलिङ्गं में विसर्ग नहीं है
तो लघ्वी नास्ति वा
ना
लघ्वी तत्र नास्ति वा भगिनि
ना भगिनि
लघ्वी तु अहं अनेकवारं श्रुतवती लघ्वी इति पदं नास्ति वा
लघु के साथ नहीं आ रहा है शायद उसका कुछ और अर्थ हो तो देखती हूँ
लघ्वी लघ्वी एक बार हाँ लघ्वी अभी अस्ति भगिने लघु योग नीश नीश प्रत्यय लघ्वी अस्तु लघ्वी इत्युक्ते डेलिकेट् वुमन् लघ्वी अस्तु अपि च लघुः अपि भवितुम् अर्हति इति भवती उक्तवती वा
आम् लघु के साथ लघुः लघुः और लघु आ रहा है
लघु स्त्रीलिङ्गं देनु वत्वा
कुत्र अस्ति भगिनी तत् धेनुवत् कुत्र दत्तम् लघुः स्त्रीलिङ्गमपि
अस्तु
नहीं, वो गुरु शब्द के जैसा लघु, अगर आप 29:30 देखते हो तो गुरु के नीचे दिया है एग्जाम्पल्स में, शब्द मंजरी में.
लघु काचाहा तो वधु लघु मूलम लघु मरुन्माला तु पिशुनां फृक्का देवी लता लघु. अस्तु
अस्तु, अग्रिममपि करोतु भगिनी, कविता भगिनी, सन्दीपस्य.
अहं वदामि, सन्दीपस्य गृहं लघु गृहं.
लघु गृहं, लघु इति तु नपुंसकलिङ्गं, किन्तु यदि अन्य किमपि अस्ति, गृहम् अस्ति चेत्, कोष्ठ प्रकोष्ठः अस्ति चेत् किं वदनीयं? लघुः
सन्दीपस्य प्रकोष्ठः लघुः अस्ति.
सत्यम्. अग्रिममपि करोतु,
द्रोण्याम् अधिकं जलम् अस्ति. एक मैं बताती हूँ, दीर्घं दीर्घः द्रोण्याम् अधिकं जलम् अस्ति. ह्रस्व चषके,
दीर्घं तु नास्ति भगिनी तत्र,
अच्छा द्रोणी मतलब बकेट ही हुआ, ओके. द्रोण्याम् अधिकं जलम् अस्ति, चषके किञ्चित् क्षीरम् अस्ति.
हा, बृहती अस्ति, दीर्घ ई अस्ति चेत् नदीवत् वदतु, सप्तमी विभक्ति किं? नद्यां. बृहत्यां द्रोण्यां,
बृहत्यां द्रोण्याम् अधिकं जलम् अस्ति.
अस्ति, हा. अपि च
लघु चषके किञ्चित् क्षीरं.
लघु अस्ति चेत् लघौ अस्ति वा? गुरौ तत्र अभवत् वा? 29
गुरौ गुरोणि,
गुरौ वा
लघुणि, हा, या तो लघौ गुरौ, लघौ लघौ, या तो फिर गुरुणि, तो लघुणि.
लघौ चषके,
लघौ चषके किञ्च,
किन्तु चषके तु नपुंसकलिङ्गं नास्ति भगिनी. पुंलिङ्गमस्ति चेत् किं वदनीयम्?
लघे,
नै लघे न, गुरुवत् अस्ति वा? पुंलिङ्गमस्ति चेत्
गुरु गुरौ,
लघौ, लघौ एव,
लघौ चषके किञ्चित् क्षीरम् अस्ति. क्षीरं मतलब मिल्क्,
क्षीरम् इत्युक्ते मिल्क्.
किञ्चित् क्षीरम् अस्ति,
क्षीरम् अस्ति, सत्यम्. उत्तमम् उत्तमम्, अभ्यासः तु समीचीनम्. विशेषसूचना अत्र अग्रिमपुटे एकं कोष्टकम् अस्ति, तदपि पठतु सुधा भगिनी.
आं भगिनि, विशेषसूचना, स्थूल बालकः स्थूलः, बालिका स्थूला, पुस्तकं स्थूलम्.
स्थूलां वा, तत्र बिन्दु अस्ति वा?
न,
मुद्रा
प्रिण्टिङ्ग् मिस्टेक्
नास्ति. ओ, प्रिण्टिङ्ग्, अस्तु अस्तु अस्तु, अवगतम्. बालिका स्थूला, पुस्तकं स्थूलं, सत्यम्. अस्तु, अपि च अग्रिमं, नूतन
नूतन, ग्रन्थः नूतनः, लेखनी नूतना, युतकं नूतनम्.
भगिनी ने विशेष जो था वो हमको थ्रू आउट करवाते ही आए हैं.
सत्यम्. सी आ करवाया नहीं इत्युक्ते मम कृते अपि नूतन एव इत्युक्ते हम याद नहीं रहता मुझे भी, वारं वारं कृत्वा एव. तभी साथ साथ करती हूँ आप लोग के।
कक्षा ईदृश एव अस्ति
अस्ति अस्ति मम कृते अपि करोमि भगिनी अहमपि मम कृते आवश्यकम् अपि इति तु अहं जानीमः। अस्तु 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 कोऽपि प्रश्नः अस्ति वा तत्र?
न भगिनि।
अस्तु इति अष्टाध्यायी मध्ये इति नूतन लिङ्क् अस्ति तत् बहु बहु धन्यवादः भगिनि उत्तममेव धन्यवादः। अस्तु अस्तु अन्तिमशान्तिपाठ वक्तुम् इच्छति वा कविता भगिनी बिना भगिनी किमपि वदतु
बिना भगिनी क्योंकि वो अदरवाइज मैं को तो उनका आवाज ही नहीं सुनने मिलता।
बिना भगिनी वदतु भगिनी अंतिम
शांति। ओम पूर्णमदं पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ओम शांति शांति शांतिः। लोकाः समस्ताः सुखिनो भवन्तु। लोकाः समस्ताः सुखिनो भवन्तु। लोकाः समस्ताः सुखिनो भवन्तु। ॐ सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु। मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः सर्वं श्रीकृष्णार्पणम् अस्तु। कविता भगिनी तिथि वदतु।
अद्य अश्विन् मासस्य शुक्लपक्षस्य पञ्चदश तिथि अस्ति।
ह्यः तु पूर्णिमा अस्ति सुन्दरमेव। उत्तमम् अस्तु धन्यवादः भगिन्या भगिन्यः।
धन्यवादः नमस्कारः प्रणाम।
धन्यवादः नमस्कारः।